रमा जाने जाने यदि तव भक्तेषु विभवः न सद्यः सम्पद्यस्तदिह मदकृत्वा दशमिना प्रशान्तिं कृत्वैव प्रदिशसि ततः काममखिलम् प्रशान्तेषु क्षिप्रं न खलु भवदीये च्युतिकथा सद्यः प्रसादरुषितान् विधिशङ्करादि केचिद् विभो निजगुणानुगुणं भजन्तः भ्रष्टा भवन्ति बत कष्टमदीर्घदृष्ट्या स्पष्टं वृकासुर उदाहरणं किलास्मिन् चकुरिजः स तु नारदमेकदा त्वरिततोषमपृच्छदधीश्वरम् स च दिदेश गिरीशमुपासितुम् न तु भवन्तमबन्धुमसाधुषु तपस्तत्त्वा घोरं स खलु कुपितः सप्तमदिने शिरश्छित्त्वा सद्यः पुरहरमुपस्थाप्य पुरतः अतिक्षुद्रौ रौद्रौ शिरसि करदानेन निधनं जगन्नाथाद्वव्रे भवति विमुखानां क्व शुभधीः मोक्तारं बन्धमुक्तो हरिणपतिरिव प्राद्रवत्सोऽथ रुद्रम् दैत्याद्भीत्यास्मदेवो दिशि दिशि वलते पृष्ठतो दत्तदृष्टिः तूष्णीके सर्वलोके तव पदमधिरोक्ष्यन्तमुद्वीक्ष्य शर्वम् दूरादेवाग्रतस्त्वं पटुवटुवपुषा तस्थिषे दानवाय भद्रन्ते शाकुनेयभ्रमसि किमधुना त्वं पिशाचस्य वाचा सन्देहश्चेन्मदुक्तौ तव किमु न करोष्यङ्गुलीमङ्गमौलौ इत्थं त्वद्वाक्यमूढशिरसि कृतकरसोपतच्छिन्नपातम् भ्रंशो ह्येवं परोपासितुरपि च गतिशूलिनोऽपि त्वमेव मृदुं किल सरस्वती निकटवासिनस्तापसाः त्रिमूर्तिषु समादिशन्नधिकसत्त्वतां वेदितुम् अयं पुनरनादरादुदितरुद्धरोषे विधौ हरेऽपि च जिहिंसिषौ गिरिजयाधृते त्वामगात् सुप्तं रमाङ्कभुवि पङ्कजलोचनं त्वां विप्रे विनिघ्नतिपदेन मुदोत्तिथस्त्वं सर्वं क्षमस्व मुनिवर्य भवेत् सदा मे त्वत्पादचिह्नमिह भूषणमित्यवादीः निश्चित्यते च सुदृढं त्वयि बद्धभावाः सारस्वता मुनिवरा दधिरे विमोक्षम् त्वामेवमच्युत पुनश्च्युतिदोषहीनम् सत्त्वोच्चयैकतनुमेव वयं भजामः जगत्सृष्ट्यादौ त्वा निगमनिवहैर्वन्दिभिरिव स्तुतं विष्णो सच्चित् परमरसनिर्द्वैत वपुषम् परात्मानं भूमन् पशुपवनिता भाग्यनिवहम् परीतापश्रान्त्यै पवनपुरवासिन् परिभजे सदा सर्वत्र गोविन्दनामसङ्कीर्तनम् गोविन्दा गोविन्दा नारायण अखिलगुरो भगवन् नमस्ते।